तु कर्म फल अर्पणम् एतत्तु कर्म फल अर्पणम् एतत्तु कर्म फल अर्पणम् असंगभावम् असंगभावम् च असंगभावम् च एतत्तु कर्म फल अर्पणम् असंगभावम् च प्रपत्तिरेव सुलभम् कर्म फल अर्पणम् असंगभावम् च एतत्तु कर्म फल अर्पणम् असंगभावम् च कर्म फल अर्पणम् असंगभावम् च सर्वशक्ति सहितं स्मृत्वा
प्राप्नोति
Danisa re Hey.